शांकर भाष्य ईशावास्य मिथ्यादयो मंत्राः कर्मस्वा विनियुक्ताः तेषां कर्मशेष स्यात्मनो यथात्म्यप्रकाशकत्वात् यथात्म्यं चात्मनः शुद्धत्वापापविद्वत्त्वैकत्वनित्यत्वाशरीरत्व स्वर्गत्वादि वक्ष्यमाणम् तच्च कर्माणा विरुध्येतेति युक्त एवैषां कर्मस्वविनियोगः न ह्येवं लक्षणमात्मनो यथात्म्य उत्पाद्यं विकार्यमाप्यं संसकार्यं कर्तृभोक्तरूपं वा येन कर्मशेषता स्यात् सर्वासाम् उपनिषदात्मयाथात्म्यनिरूपणेनैव उपक्षयात् गीतानां मोक्षवर्माणां चैव परत्वात् तस्मादात्मनो अनेकत्वकर्तृत्वभोक्तत्वादि चा अशुद्धत्वपापविद्धत्वादि चोपादाय लोकबुद्धिसिद्धं कर्माणि विहितानि यो हि कर्मफलेनार्थीदृष्टेन ब्रह्मवर्चसादिनादृष्टेन स्वर्गादिना च द्विजातिरहं न काणकुब्जत्वाद्यनिधकारप्रयोजकधर्मवानित्यात्मानं मन्यते सो अधिक्रियते कर्मस्वति ह्यधिकारविदो वदन्ति तस्मादेते मन्त्रा आत्मनो यथात्म्यप्रकाशनेन आत्मविषयं स्वाभाविकं ज्ञानं निवर्तयन्तः शोकमोहादिसंसारधर्मविच्छित्तिसाधन आत्मैकत्वदिविज्ञानमुत्पादयन्ति इत्येवमुक्ताधिकार्यधि ध्येयसम्बन्धप्रयोजनान्मन्त्रासङ्क्षेपतो व्याख्यायस्यामः।